चित्तरत्न ग्रहणाय सम्यक् पूजां करोमीश तथागतानां सद्धर्म रत्नस्य च पुष्पाणि फलानि चैव भेषज जातानि चयानि सन्ति रत्नानि यावन्ति च सति लोके वनप्रदेशाश्च विवेकरम्याः लता सुपुष्पा भरणोज्ज्वलाश्च द्रुमाश्च सत्फलनम् ग्रहणं तु तन्मे। 마음을